यामि माम पुष्पिताम वाचम,
यामि माम पुष्पिताम वाचम।
प्रवदन्त्य विपश्चितः,
प्रवदन्त्य विपश्चितः।
वेदवादरताः पार्थ,
वेदवादरताः पार्थ।
नान्यदस्तीति वादिनः,
नान्यदस्तीति वादिनः।
अगेन, यामि माम पुष्पिताम वाचम,
यामि माम पुष्पिताम वाचम।
प्रवदन्त्य विपश्चितः,
प्रवदन्त्य विपश्चितः।
वेदवादरताः पार्थ,
वेदवादरताः पार्थ।
नान्यदस्तीति वादिनः,
नान्यदस्तीति वादिनः।
नेक्स्ट् श्लोक, 43rd श्लोक, ओके
ओके मम्मु।
कामात्मानस्वर्गपराः,
कामात्मानस्वर्गपराः।
Where is that s? कामात्मानस्वर्गपराः,
कामात्मानस्वर्गपराः।
जन्मकर्मफलप्रदाम्,
जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलाम्,
क्रियाविशेषबहुलाम्।
भोगैश्वर्यगतिं प्रति,
भोगैश्वर्यगतिं।
Hey, what is that? भोगैश्वर्यगतिं प्रति,
भोगैश्वर्यगतिं प्रति।
Once again, make sure that you are pronouncing that s also. Why? Because kamatmanah swargaparah becomes kamatmanah swargaparah.
कामात्मानस्वर्गपराः।
जन्मकर्मफलप्रदाम्,
जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलाम्,
क्रियाविशेषबहुलाम्।
भोगैश्वर्यगतिं प्रति,
भोगैश्वर्यगतिं प्रति।
उत्तमम्। You are with all Shraddha, right?
Yes, Mammu.
You are not dreaming, no?
No.
Now, next one, 44. Bhogaishwariya prasaktanam,
Bhogaishwariya prasaktanam.
Tayapahrta chetasam,
Tayapahrta chetasam.
Vyavasayatmika buddhihi,
व्यवसायात्मिका बुद्धिः।
समाधौ न विधीयते,
समाधौ न विधीयते।
वन्स अगेन, भोगैश्वर्य प्रसक्तानां,
भोगैश्वर्य प्रसक्तानां।
तयापहृत चेतसां,
तयापहृत चेतसां।
व्यवसायात्मिका बुद्धिः,
व्यवसायात्मिका बुद्धिः।
समाधौ न विधीयते,
समाधौ न विधीयते।
See, now you have gained experience. You are chanting it so beautiful. Okay, beautifully. Uttamam, atti uttam. Chanting together?
Yes, Mammu.
यामि माम पुष्पिताम वाचम, प्रवदन्त्य विपश्चितः, वेदवादरताः पार्थ, नान्यदस्तीति वादिनः, कामात्मानस्वर्गपराः, जन्मकर्मफलप्रदाम्, क्रियाविशेषबहुलाम्। भोगैश्वर्यगतिं प्रति, भोगैश्वर्यप्रसक्तानां, तयापहृतचेतसां, व्यवसायात्मिका बुद्धिः,
ಸಮಾಧೌ ನ ವಿಧೀಯತೆ.
ಇನ್ನು ಲೆಟ್ ಅಸ್ ಗೋ ಥ್ರೂ ದ ಮೀನಿಂಗ್ಸ್.